एस रेडियो नेपालः सम्प्रति समाचारः श्रुयन्ताम् प्रवाचकः उपेन्द्र दाहालः। नेपाली कांग्रेस नेकपा माओवादी केन्द्र एकीकृत समाजवादी प्रवृत्ति नाम सत्ता गठबन्धनस्य दलानाम मध्ये ह्यः सर्वकार विस्तारस्य विषय विमृष्टमस्ति। बालुवा टारावर्तिनी प्रधानमन्त्री निवासे उपविष्टे उपवेशे दलानाम मध्ये मन्त्री परिषद विस्तार प्रवृत्तिषु विषयेषु विमृष्टमिति नेपाली कांग्रेस दलस्य नेता रमेश लेखकः ज्ञापयति। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः राष्ट्रिय सभायां प्रस्तुते संकल्प प्रस्तावे उत्थापितान् विषयान् वैधानिक रूपेण राज्यस्य पक्षतः अधिकतमं सम्बोधयितुं प्रतिबद्धतां व्यनक्ति। राष्ट्रिय सभायाः गतदिवसीयोपवेशे सांसदेन भुवन बहादुर सुनार इत्यनेन प्रस्तुतं संकल्प प्रस्तावम् आधृत्य विते विमर्शने उत्थापितान् विषयान् उत्तरयन् प्रधानमन्त्री प्रचण्डः इमे विषयाः राज्यस्य पक्षतः संविधानेन विधिना सचेष्ट प्रयत्नस्य निरन्तर प्रयासेन राष्ट्रस्य विकास समृद्ध्यो प्रापणात्मिकायाः प्रक्रियायाः संयोजनेन च समाधीयन्ते इत्यभासत। प्रधानमन्त्री प्रचण्डः अगदत् विकासस्य गतिक्रमेण समाजे विद्यमानानि विभेदोत्पीडनानि च अन्तं यान्ति। प्रधानमन्त्री प्रचण्डः विगतकालिक क्रान्तेः आन्दोलनस्य च समये उत्थापितानां विषयाणामेव संकल्प प्रस्तावे उल्लेखनात् अत्र स्वस्य कापि विमते नास्तीति समस्पष्टयत्। असौ दलितानाम् अधिकारान् वैधानिकरूपेणैव सम्बोधयितुं प्रयत्यमानमस्तीति भाषमाणः एते विषयाः सामाजिक सांस्कृतिक रूपान्तरणस्यैव अपरपक्षस्थिति प्रत्यपादयत्। उपवेशे संकल्प प्रस्तावस्य प्रस्तुता सांसदः सुनारः संविधानेन विधिना च स्पृश्यापृश्यम् उत्पीडनम् जातीय विभेदम् च अपराधम् मत्वा दण्डनस्य व्यवस्थायम् वितायम् सत्यमपि अत्र कापि न्यूनता नागतेति यतो संविधानस्य विदेश च प्रभावकारी क्रियान्वयनाय संकल्प प्रस्तावोऽसौ आनीतोऽस्तीति अवोचत। सांसदेन सुनार इत्यनेन राष्ट्रिय सभायाम् प्रस्तुतः दलित समुदायस्य विभेदोत्पीडनानि समाप्य सामाजिक सांस्कृतिक आर्थिक राजनीतिक समानता समृद्धि सामाजिक न्यायस्य सुनिश्चयन सम्बद्ध संकल्प प्रस्ताव उपवेशेन सर्वसम्मत्या स्वीकृतो वर्तते। तत्पूर्वं शून्य समये सांसदाः मानवतास्करीयस्य त्रिभुवन विश्वविद्यालयस्य अव्यवस्थायाः पोखरावर्तिनः फेवात् तडागस्य अतिक्रमणस्य नागरिकेषु स्वास्थ्यसेवायाः प्राप्तेस्त विषयेषु सदनस्य माध्यमेन सर्वकारस्य ध्यानम् आकर्षयन् एवमेव सांसदाः भूमिहीनानां समस्यायाः नागरिकता सम्बद्ध समस्यायाः राष्ट्रस्य आर्थिक अवस्थायाः प्रहरीभि यूनां मुखावरोधनस्य कारणस्य जातीय विभेदस्य च विषयेष्वपि सर्वकारस्य ध्यानम् आकर्षयन् उपवेशे प्रत्यायोजित व्यवस्थापन सर्वकारीयाश्वासन समितेः सभापतिः माया प्रसाद शर्मा समितेः गतार्थिक वर्षीयं प्रतिवेदनं प्रस्तौत। उपवेशेन राष्ट्रिय सभायाः सदस्या विमला राई पौड्यालः राष्ट्रिय सभायाः विधायन व्यवस्थापन समितेः सदस्ये मनोनीता वर्तते। तत्पूर्वं राष्ट्रिय सभायाः अध्यक्ष गणेश प्रसाद तिमलसिन्हा राष्ट्रपति कार्यालयात् प्राप्तस्य मन्त्रिपरिषदः सदस्यानां कार्यभार निर्धारण सम्बद्धस्य पत्रस्य विवरणं सभायां प्रस्तौत। उपवेशेन संविधान सभा सदस्यस्य गणेश प्रसाद विमली इत्यस्य निधने शोक प्रस्ताव पारितीकृत आसीत्। राष्ट्रिय सभायाः अपरोपवेशः अस्यैव चैत्रस्य द्वादश दिवसे रविवासरे दिवा एकवादने वस्ता। वैदेशिक वृत्त्युपार्जनाय विदेशं गतानां श्रमिकाणां विदेशे वर्तमानानां स्ववृत्त्युपार्जकानां व्यक्तीनां च कृते सामाजिक सुरक्षा योजनायाः शुभारम्भः वितोऽस्ति। श्रमवृत्ति सामाजिक सुरक्षा मन्त्रालयेन ह्य आयोजिते कार्यक्रमे प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः वैदेशिक वृत्त्युपार्जनाय विदेशं गतानां श्रमिकाणां योजनायां सूचीकरणस्य कार्यं प्रारभत। योजनां शुभारभमाणः प्रधानमन्त्री प्रचण्डः वृत्त्युपार्जनाय यैव बाध्यात्मक रूपेण विदेश गमनस्य अवस्थायाः समापनमेव अतपरं सर्वकारस्य दायित्वमस्तीति अवोचत। प्रधानमन्त्री प्रचण्डः विदेशे वर्तमानान् सर्वान् नेपालिनः सामाजिक सुरक्षा कोषेण प्रारब्धे दूरगामि महत्वस्य कार्यक्रमे सम्पृक्ताः भवितुं सुरक्षिताः अनुभवितुं च अन्वरुणत। मृत्युपार्जनाय विदेशं गतेभ्यः युवाभ्यः केनापि ब्याजेन दुःख प्रदानस्य वञ्चनस्य विलम्बनस्य च कार्यं सर्वकाराय स्वीकार्य न भवतीति प्रधानमन्त्री प्रचण्डः प्रत्यादिशत। योजनायाः प्रारभणेन सैव वैदेशिक वृत्त्युपार्जने स्थिताः लक्षशो नेपालिनः लाभान्विताः भविष्यन्तीति अपेक्षितं वर्तते। स्वीकृत कार्यविधेः अनुसारेण वैदेशिक वृत्त्युपार्जनाय गतैः विदेशे वर्तमानैः स्ववृत्त्युपार्जकैश्च श्रमिकैः मासिक रूपेण न्यूनतम आधारभूत पारिश्रमिकस्य प्रतिशतं 10.33 वित्तम् अर्थात् न्यूनतम 1,002 रूप्यकाणि अधिकतमं एतस्य त्रिगुणं यावत् कोषे संस्थाप्य सुविधायां सहभागिनो भवितुं शक्नुवन्ति। राष्ट्रपतिः रामचन्द्र पौडेलः निगदति राष्ट्र निर्माणे सर्वेषां सहकार्यम् आवश्यकं वर्तते। नेपाल निर्माण व्यवसाय महासंघस्य प्रतिनिधिमण्डलेन पूर्वेद्युः विहिते मेलने राष्ट्रपतिः पौडेलः राष्ट्रे विकासस्य महती सम्भावना वर्तते एतदर्थं सर्वे मिलित्वा कार्यं कर्तव्यमिति धारणां व्यक्तवान्। राष्ट्रपतिः पौडेलः निर्माण व्यवसायीभ्यः प्रोत्साहनाय आत्मना आवश्यकः समन्वयः विधीयते इति प्रतिबद्धतां व्यक्तवान्। नेपालस्य निर्माण व्यवसायिनां समस्यायाः विषये आत्मना ज्ञातमस्तीति स्पष्टीकुर्वन् राष्ट्रपतिः पौडेलः आत्मना यथाशक्ति दायित्वं गृहीत्वा विश्वसनीयं कार्यं विधातुं व्यवसायीभ्यः परामृशत्। राष्ट्रपतिः पौडेलः राष्ट्र निर्माणस्य दायित्वं निर्माण व्यवसायिनां स्कन्दे वर्तते इत्यवोचत। मेलने नेपाल निर्माण व्यवसाय महासंघस्य अध्यक्ष रवि सिंह पश्चात्तन समये राज्येन व्यवसायीभ्यः प्रदेय वित्तस्य अप्रदानात् निर्माणोद्योगेषु बह्व्यः समस्याः दृष्टाः सन्ति इति विषयस्य ज्ञापनेन सह राष्ट्रपतौ निर्वाचनम् आलक्ष्य पौडेलाय वर्धापन ज्ञापन पुरस्सरं कार्यकालस्य पूर्ण सफलताम् अकामयत। अत्रान्तरे राष्ट्रपतिः पौडेलः पशुपति क्षेत्रस्थिते वनकाली स्थाने वृक्षारोपणं व्यदधात्। राष्ट्रपतिः पौडेलः वनकाली क्षेत्रे ह्य नागचम्पक पुष्पस्य विरुद्धम् अरोपयत्। राष्ट्रपतिना रामचन्द्र पौडेलेन सह नेपालस्य कृते चीनदेशीय राजदूतः चेन संग मेलवार्ताम् अकरोत्। शीतल निवासवर्तिनी राष्ट्रपति भवने ह्य बीते मेलने एतयोर्मध्ये नेपाल चीन देशयोर्मध्ये विद्यमानस्य द्विपक्षीय सम्बन्धस्य पारस्परिक हितस्य अभिरुचेश्च विषयेषु वार्ता सम्भूतेति राष्ट्रपतेः कार्यालयस्य प्रवक्त्रा सागर आचार्येण प्रकाशितायां विज्ञप्तौ ज्ञापितं वर्तते। संचार सूचना प्रविधि मन्त्रिणा रेखा शर्मणा भारतात् नेपाले दूरभाषाय निर्धारितं शुल्कं न्यूनीकर्तुं भारत सर्वकारः अनुरुद्धो वर्तते। भारत सर्वकारस्य संचार राज्य मन्त्रिणा देवसिंह चौहान इत्यनेन सह ह्य नयाँ दिल्ली स्थाने विहिते विमर्शने मन्त्री शर्मा नेपाल भारतयोर्मध्ये दूरभाषाय निर्धारिते शुल्के महती असमानता स्थिति हेतोः देशद्वयस्य समय सूचना शुल्के पुनरावलोकनं विधाय सुलभ शुल्केन सेवां प्रदातुम् अनुरुणात्। नेपालस्य आभ्यन्तरस्य कतिचित् भागेष्वपि भारतीय चलभाषा सेवा प्राप्यमाणा वर्तते इत्यत्र ध्यानाकर्षणं कारयन्ति मन्त्री शर्मा विषयेऽस्मिन् देशद्वयस्य सेवा प्रदायक नियामकैः निकायैः सचेष्टैर्भाव्यम् इत्यत्र बलं प्रादात्। मन्त्री शर्मा नेपाले भारतीय दूरदर्शनस्य सहजतया प्रसारणं भवति परं नेपाली दूरदर्शनस्य भारते प्रसारणाय काठिन्यं वर्तते इत्यतः नेपाली दूरदर्शनस्य सहजतया प्रसारणस्य वातावरणं स्रष्टुम् अपि अनुरुद्धवती। भारत सर्वकारेण दीर्घकालाद् विभिन्नेषु विषयेषु छात्रवृत्तिः प्रदीयमानास्ति इत्यतः वर्तमान परिप्रेक्ष्ये सूचना प्रविधौ साइबर सञ्जाल प्रणाल्याः सुरक्षाया क्षेत्रे च नेपालाय सहयोक्तुं मन्त्री शर्मा भारत सर्वकारम् अभ्ययाचत। रेडियो नेपाल अल इण्डिया रेडियो प्रसारणयोर्मध्ये पारस्परिक विषयाणां प्रसारणस्य विषये सहमत्यै पूर्वकार्यं विहितम् अस्ति इति भासमाणः मन्त्री शर्मा संविधायाः प्रारूपस्य निर्माणाय नेपालस्य प्राविधिक समूहेन अध्ययनं विधीयमानम् अस्ति शीघ्रमेव विषयेषु निष्कर्षं प्राप्यते इति च विश्वासं व्यक्तवती।